तिष्ठा हरे रथ आयुज्यमाना जाहि वाजुर्न निजतो नो अच्छा पिभास्यन्ध अभिसृष्ट अस्मे इन्द्रस्वाहा ररिमाते मदाय उपाजिरा पुरोहोताज सप्ते हरे रथस्य धोर्ष्वाजुनज्मे द्रवद्यथा संभ्रतं विश्वतश्चिदुपे मञ्जग्दमावहात इन्द्रम् उपो नजस्व वृषणात पुष्पोते भवत्वं वृषभस्वधावः ग्रसेतामश्वा विमुचे हशोणा दिवे दिवे सदृशीरद्धिधानाः ब्रह्मणाते ब्रह्मजुजा जुनज्मि हरे सखा जासधमाद आशो स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वां उपजाहि सोमम् माते हरे वृषणा वेदपृष्ठा निरेरमन्यजमानासो अन्ये अर्त्याजा हिषश्वतो भजन्तेरं सुतेभ्यः कृणवामसो मयीः तभाजं सोमस्त्वमे ह्यर्वांशश्वत्तमं सुमना अस्य पाहि अस्मिन् यज्ञे बर्हिष्या निषद्या दधिष्वे मञ्जठर इन्दुमिन्द्र स्तीर्णन्ते बर्हिस्सुत इन्द्र सोमः कृता धाना अत्तमेते हरिभ्याम् तदो कसे पुरुषाकाज वृष्णे मरुत्पते तुभ्यं व्राता हवींषि इमन्नरः पर्वतास्त्वभ्यमापस्समिन्द्रगो भर्मधुमन्दमक्रन्न तस्यागत्या सुमना रश्वपाहि प्रजानन् विद्वान् पथ्या अनुस्वाह याम् अभजो मरुत इन्द्र सो बेजे त्वामवर्धन्न भवन् गणस्ते तेभिरेतम् सजोषा वावशानो अग्नेः पिब जिह्वजा सोममिन्द्र इन्द्र पिबस्वधजा चित्सुतस्याग्नेर्वा पाहि जिह्वजा यजत्र मध्वर्यार्वा प्रयतम् शक्रहस्ताद्धो दुर्वाजग्नम् हविषो जुषस्व शुनम् हवे मम घवा नमिन्द्रमस्मिन् भरे नृतमम् वाजसाधौ शृण्वन्तमुग्रबोधये समत्सुघ्नन्तम् व्रत्राणि सञ्जितम् धनानाम्